श्रुतेषु प्रणतेषु च चरणाश्रयदानेन कृपामयि नमोऽस्तु ते लज्जापटावृते नित्यम् सारदे ज्ञानदायिके पापेभ्यो न सदा रक्ष कृपामयि नमोऽस्तु ते कृष्णगत प्राणां तन्नाम श्रवणप्रियां तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः पवित्रं चरितं यस्या पवित्रं जीवनं तथा पवित्रता स्वरूपिण्यै तस्यै देव्यै नमो नमः।
जगद्गुरुं पादपद्मे तयो श्रुत्वा प्रणमामि मुहुः।